अथ चतुर्थः पाठः। पूर्वं हि देवानाम् असुराणां च समरे केकयस्य सुतया दशरथस्य जीवितं रक्षितं, तस्मात् सा नृपेणोक्ता, प्रिये मया द्वे वरे तव दत्ते, यद् जातिष्यसि तत् करिष्यामीति। तद्वचनं श्रुत्वा सा बहु रुष्टा, ते वरे च स्मृत्वाद्य दशरथो रामस्य गमनं तया पृष्ट उक्तश्च रामेण वनं गन्तव्यमिति।